स्तवम् सागर रूपेण पालनं यस्य सदा भवे सा माता मम जीवनं प्रकाशयति सर्वदा।
दुखेषु सा एव शरणम्।
गहने स्थिता मातृभक्तिर्मम सदा तस्या चरण सेवाया मोक्ष मार्गोऽपि दृश्यते Show.